ततं मे अपस्तदुतायते पुनः स्वादिष्ठाधीति रुचथा अजशस्यते अयं स पुत्र इह विश्वदेव्य स्वाहा कृतस्य समुदृप्नुतर्भवः अभोगजं प्रयदिच्छन्त ऐतनापाकाः प्राञ्चो मम केचिदापयाः सौधन्वनासश्चरितस्य भूमना गच्छत स विदुर्दाशुषो गृहम् तत्सवितावो मृतत्वमासुपदगो ह्यञ्यच्छ्रवयन्त ऐतना यञ्चिच्चमसमसुरस्य भक्षणमेकम् सन्तमकृणुता चतुर्वयम् विष्वेशमेतरणित्वेन भाघतो मर्ता सस्सन्तो अमृतत्वमानशुः सौधन्वनार्भवः सूरचक्षसः संवत्सरे समपृच्छन्त धीतिभिः क्षेत्रमिव विममुस्ते जनेनाम् एकम् पात्रबृभवो जेहमानम् उपस्तुता उपमन्नाधमाना अमर्त्ये शुश्रव इच्छमानाः आमनीषामन्तरिक्षस्य नृभ्यसृजेव घृतम् जुहवाम विद्मना तरणित्वा ये पितुरस्य सष्ठिरर्भवो भाजमर्हन् दिवो रजाः रभुर्न इन्द्रश्यवसा न बीजानुभर्वाजेभिर्वसुभिर्वसुर्दधिः युष्माकम् देवा अवसाहनि प्रिये एभितिष्ठेम पृच्छतीरसुन्वताम् निश्चर्मणर्भवो गामविंशत संवत्सेना सृजता मातरम् पुनः सौधन्वनासस्वपस्य या नरो जिव्रीजुवाना पितरा कृणोतना भाजेभिर्नो भाजसा तावविढ्र्यभुवाम् इन्द्रचित्रमादर्शिराधाः तन्ना मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उतद्यौः